न ध्यायतो न जपतः स्याद्यस्य विधि पूर्वकम् एवमेव शिवाभासः तं नमो भक्तिशालिनम्। आत्मा मम भवद्भक्ति सुधापान युवापि सन् लोकयात्रा रजो पलितैरिव धूसरः लब्धत्वत्सम्पदां भक्तिमतां त्वत्पुरवासिनां सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे किम् मन्त्रः क्वैषां न सिध्यति जयन्ति भक्ति पीयूष रसासवरोन्मदाः अद्विति द्वितीया अपि प्रभो अनन्तानन्द सिन्धोस्ते नाथ तत्त्वं विदन्ति ते एव ये सान्द्र भक्त्यानन्द रसाप्लुताः त्वमेवात्मेश सर्वस्य सर्वश्चात्मनिरागवान् एते स्वभावसिद्धां त्वद्भक्तिं जानर्जयज्जनः अनन्तानन्द सरसि देवी प्रियतमा यथा अवियुक्तास्ति ते त्वत् एका त्वत् भक्तिरस्तु मे। भवद् भक्ति ते तत्व वेदिनः आमूलात् वाग्लतास्येयं क्रमविस्फार शालिनी त्वद्भक्ति सुधया तद्रसाध्य फलास्तु मे शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् न योगो न तपो नार्चा क्रमः कोऽपि भक्तिरेका प्रशस्यते शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा समस्त विषयास्वाद भक्तेष्वेवास्ति कोऽप्यहो शान्तकल्लोल शीताच्छ स्वादु भक्ति सुधां बुधौ अलौकिक रसास्वादे सुस्थैः को नाम गण्यते भवद्भक्ति सु अपि चित्रं निसर्गतो नाथ दुःखबीजम् इदं मनः त्वद्भक्तिरस संसिक्तम् निःश्रेयस महाफलम् त्वद्भक्तिरस संसिक्तम् निःश्रेयस महाफलम्।